अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः अथ वार्ताः प्रधानमन्त्री नरेन्द्र मोदी अद्यारभ्य इण्डोनेशिया ऑस्ट्रेलिया न्यूजीलैण्ड देशानां षड्दिवसीय यात्रायै प्रस्थितः अस्याः त्रिदेशीय यात्रायाः प्रथमे चरणे असौ अद्य इण्डोनेशिया देशं प्राप्स्यति प्रधानमन्त्रिणः मोदिनः इयं चतुर्थ इण्डोनेशिया यात्रा वर्तते अत्रावधेयं यत् स्वयात्रावधौ प्रधानमन्त्री इण्डोनेशिया देशस्य नवनिर्वाचित राष्ट्रपतिना प्रवोवो सुबियान्तो इत्यनेन सह द्विपक्षीय वार्तालापं विधास्यति सन्धेः प्रगतिमालक्ष्य समीक्षां च करिष्यति तदीय मुख्याः आधिकारिकाः कार्यक्रमाः जकार्ता नगरे भविष्यन्ति परम् असौ योग्यकर्ता इति कञ्चन ऐतिहासिकं सांस्कृतिकं च नगरमपि गमिष्यति जकार्तानगरे प्रधानमन्त्री सुविशालं भारतीय प्रवासी समुदायं सम्बोधयिष्यति केन्द्रीय गृह एवं सहकारिता मन्त्री अमितशाहः अद्य नवदेहल्याम् आयोजितं सहकारिता मन्त्रालयस्य पञ्चमं स्थापना दिवस समारोहम् अलंकरिष्यति मन्त्रालयेन ज्ञापितं यत् अयं समारोहः सहकारात् समृद्धिः इति राष्ट्रिय संकल्पनामाधृत्य विधीयते अस्मिन् मंगल प्रसंगे श्रीशाहः अनेकासां प्रमुखाभिनव परियोजनानां शिलान्यासम् उद्घाटनं च विधास्यति एतासु योजनासु द्वात्रिंशदधिक द्विशत अन्न संग्रह भण्डाराणां लोकार्पणं सहकार वनस्य भूमिपूजनम् उत्तर प्रदेश महाराष्ट्र राज्ययोः कृषु कल्चर इति सुविधायै भूमिपूजनम् राष्ट्रिय सहकारी डेटाबेस एनसीडी 3.0 इत्यस्य भौगोलिक चिन्हांकन दूरभाषानुप्रयोगस्य च आरम्भः जम्मू कश्मीर केन्द्रशासित प्रदेशे प्रचलन्त्यां वार्षिक श्री अमरनाथजी यात्रायां श्रद्धालूनां महत्सम्मर्धः दृश्यते यत्र यात्रायाः प्रथमेषु त्रिषु दिनेष्वेव 650,000+ जनाः पवित्र गुहा मन्दिरे समागताः रविवासरे प्रायः 25,000 भक्तैः बाबा बर्फानी इत्यस्य दिव्य दर्शनं विहितम् इतः पूर्वं द्वितीय दिने प्रायः 20,000 जनाः उद्घाटन दिवसे च 12,000+ तीर्थयात्रिणः भगवतः दर्शनं लब्धवन्तः अनेन सहैव जम्मू कश्मीरस्य उपराज्यपालः मनोज सिन्हा श्वः नुवान पहलगाम इति आधार शिबिरस्य निरीक्षणं विधास्यति सममेव ह्यः तत्र तीर्थयात्रिभ्यः कल्पितानां व्यवस्थानां प्रबन्धानां च सूक्ष्म पुनरीक्षणं तेन कृतम् देशस्य विशालेषु भूभागेषु प्रावृत् स्थितिः अत्यधिकं तीव्रीभूता सञ्जाता येन हि अतिवृष्टिः मेघगर्जनम् विद्युत्पातः प्रचण्ड चक्रवाद्वायुः च प्रचलति भारतीय ऋतुविज्ञान विभागेन विज्ञापितं यत् आगामिषु चतुर्षु दिनेषु गुजरातराज्यस्य कतिपय भागेषु हरियाणा पंजाब राजस्थानेषु च प्रावृत् स्थितिः सर्वथा अनुकूला वर्तते विभागेनाद्य छत्तीसगढ़ मध्यप्रदेश राजस्थान कर्नाटक उत्तराखण्ड राज्येषु अतिवृष्टेः पूर्वानुमानं कृतम् अपरतः आगामिषु द्वित्रिदिनेषु राष्ट्रिय राजधान्यां दिल्ल्यां उत्तरप्रदेशे पंजाबे चण्डीगढ़ क्षेत्रे विकीर्णरूपेण वृष्टिः सम्भाव्यते विम्बल्डन टेनिस प्रतिस्पर्धायां गतरात्रौ सर्बियादेशस्य लब्ध प्रतिष्ठेन क्रीडकेन नोवाक जोकोविचेन रूस देशस्य रोमन सफ्यूलिनं पराजित्य पुरुषेकल क्रीडायाः प्रागुपान्त्य चक्रे स्थानं सुरक्षितम् इतः परम् असौ फेलिक्स नगरे उत डेवी वोचेस इत्यनेन सह क्रीडां करिष्यति इति वार्ताः